एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः राष्ट्रपतिः रामचन्द्र पौडेलः एतद् विक्रमवर्षीयम् सत्यनिरूपण मेलायोग सम्बद्धम् तृतीय संशोधन विधेयकम् प्रमाणीकृतवान् अस्ति। राष्ट्रपतिना पौडेलेन संघीय संसदः द्वयोः सदनयोः उपवेशाभ्याम् पारितीकृत्य प्रस्तुतम् विधेयकमिदम् संविधानस्य त्रयोदशोत्तरैकशततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण प्रमाणीकृतमस्तीति राष्ट्रपति कार्यालयेन ज्ञापितम् वर्तते। विधेयकमिदम् गत श्रावणमासस्य त्रिंशे दिवसे प्रतिनिधिसभया अस्यैव भाद्रमासस्य षष्ठे दिवसे राष्ट्रियसभया च पारितीकृतम् आसीत्। नेपालस्य संघीय संसदः सदनद्वयात् सर्वसम्मत्या पारितस्य सत्यनिरूपण मेलायोग सम्बद्धस्य विधेयकस्य अन्तर्राष्ट्रिय समुदायेन स्वागतम् विहितम् वर्तते। विधेयकम् संयुक्त राज्य अमेरिका, स्विट्जरल्याण्ड, अस्ट्रेलिया, संयुक्त अधिराज्य बेलायत, नर्वे, जापान, फिनल्याण्ड, यूरोपीय संघ, जर्मनी, फ्रान्स देशैः स्वागतम् विहितमस्ति। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया कथयति संक्रमणकालिका न्याय सम्बद्ध विधि पीड़ित मैत्री निर्मितोऽस्ति। विलोपितानाम् व्यक्तिनाम् अनुसन्धानायोगेन बलपूर्वकम् विलोपितानाम् पीड़ितानाम् जनानाम् अन्तर्राष्ट्रिय दिवसस्य सन्दर्भे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री चौरसिया संक्रमणकालिका न्याय सम्बद्धो विधि पीड़ित जनेभ्य न्याय प्रदायको स्थिति प्रत्यपादयत। कार्यक्रमे महान्यायाधिवक्ता रमेश वडालः संक्रमणकालिका न्यायम् निष्कर्षे प्रापय्य पीड़ित जनेभ्य यथाशीघ्रम् न्याय प्रदातव्य इति बलम् प्रादात्। नेपाल सर्वकारेण मुख्य सचिव पदे एकनारायण अरियालः नियुक्तोऽस्ति। ह्य उपविष्टेन मन्त्रिपरिषद उपवेशेन सम्प्रति गृह सचिव पदे कार्यरतः अरियालः सैव भाद्रमासस्य षोडश दिवसात् क्रियान्वयनत्वेन मुख्य सचिव पदे नियुक्तोऽस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ असूचयत। एवमेव मन्त्रिपरिषद उपवेशेन नेपाल चलचित्र विकास समितेः कार्यकार्याध्यक्ष पदे दिनेश डीसी इत्यमुम् नियोक्तुम् निर्णीतमस्ति। उपवेशेन एनसेल नामिकायाः दूरसंचार सेवा प्रदायिकायाः संस्थायाः अनुमति पत्रस्य नवीकरणाय चतुर्षु चरणेषु नवीकरण शुल्कम् प्रदातुम् अनुमतेः प्रदानाय निर्णीतमस्तीति सर्वकारस्य प्रवक्ता मन्त्री गुरूङ असूचयत। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदेन सोविता गौतमेन प्रस्तुतम् उड्डयनक्षेत्रेण सह सम्बद्धैः अन्तर्राष्ट्रिय संघटनैः नेपालस्य उड्डयनक्षेत्रम् असुरक्षितम् जायमानमस्तीति कथनस्य कारणात् विमानानाम् दुर्घटनया वायुसेवायाः उद्योगे विश्वासे च प्रतिकूल प्रभावः सृष्टोऽस्तीत्यतः तत्कालम् सुधारम् कृत्वा विश्वासवर्धनस्य आवश्यकतास्तीति विषयस्य सार्वजनिकमहत्वस्य प्रस्तावमाधृत्य विमृष्टम् वर्तते। विमर्शने सांसदाः विषयेऽस्मिन् सुधारस्य विकल्पो नास्तीत्यतः विशेष कार्ययोजनया कार्यम् विधातव्यमिति बलम् प्रादुः। तत्पूर्वम् उपवेशस्य आकस्मिक शून्य विशेष समयेषु उत्थापितान् प्रश्नान् उत्तरयन्ती शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई स्तरत्रयस्यैव सर्वकारेषु समन्वय सति शिक्षायाम् गुणस्तरीयता मानेतुम् शक्यते इति प्रावोचत। तत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। उपवेशे नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा राज्य व्यवस्था समितौ विमृश्यमाने भ्रष्टाचार सम्बद्धे विधेयके समयसीम्नः निर्धारणस्य विषये उत्तेजक राजनीतिः न कर्तव्येति उदैरयत्। नेकपा एमाले दलस्य सांसद गोकुल बास्कोटा प्रमुख प्रतिपक्ष दलस्य माओवादी केन्द्रस्य अध्यक्षस्य अध्यक्षाय पुष्पकमल दाहाल प्रचण्डाय विद्रोहस्य भाषाम् न प्रयोक्तुम् अन्वरुणत। प्रतिनिधिसभायाः उपवेश अद्य वसति। राष्ट्रिय सभाया ह्यस्तनोपवेशेन एतद् विक्रम वर्षीयम् नेपाल विधि व्यवसाय परिषद द्वितीय संशोधन विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतो वर्तते। उपवेशे विधि न्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया विधेयेन प्रस्तुतः प्रस्तावोऽसौ सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे विधायन व्यवस्थापन समितेः वार्षिकं प्रतिवेदनं समितेः सभापति जयन्ती देवी राय प्रास्तौत। राष्ट्रिय सभायाः विशेष समये सांसदाः हरितालिका पर्वणः नामनि सामाजिक सांस्कृतिक परम्परायाः विस्थापन पूर्वकं दृष्टा उच्छृंखलतायुतः कार्यकलापः सर्वकारेण प्रतिबन्धनीय शिल्प समयुताः दलिताः विकासस्य मूल प्रवाहे योजनीयः सांविधानिक व्यवस्थानुसारेण समावेशी प्रतिनिधित्व सिद्धान्तस्य सर्वकारेण क्रियान्वयनं विधेयमित्येतेषु विषयेषु बलं प्रादुः। राष्ट्रिय सभायाः अपरोपवेशः अस्यैव भाद्रमासस्य अष्टादशे दिवसे मंगलवासरे दिवा सपादैकवादने वस्ता। नेकपा एमाले दलेन वार्षिकी कार्ययोजना निर्मिता वर्तते। ललितपुरस्य च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टेन सचिवालयोपवेशेन दलस्य वर्तमानार्थिक वर्षस्य कृते निर्मितायाः नवीनायाः वार्षिक कार्ययोजनायाः प्रारूपमाधृत्य विमर्शनं प्रारब्धमस्तीति उपमहासचिवः प्रदीप ग्यमाली असूचयत। उपमहासचिवः ग्यमाली प्रारूपाय आगामिना पोलिट ब्यूरो उपवेशेन अन्तिमं रूपं प्रदास्यते इति अज्ञापयत। दलस्य पोलिट ब्यूरो निकायस्य उपवेशः अस्यैव भाद्रमासस्य अष्टादशे ऊनविंशे च दिवसयोः वस्ता। प्रधानमन्त्री केपी शर्मा ओली जननेतु मदन भण्डारिणः अर्धकायिकायाः प्रतिमायाः अनावरणं विहितवान् वर्तते। ललितपुरस्य च्यासलवर्तिनी दलमुख्यालये निर्मितायाः प्रतिमायाः अध्यक्षः ओली ह्य अनावरणं विहितवान् अस्ति। अनावरण कार्यक्रमे दलस्य शीर्षनेतारः सहभागिनः आसन्। शिल्पकारेण लालकाजी लामा इत्यनेन प्रतिमायाः निर्माणं विहितम् आसीत्। गृहमन्त्री रमेश लेखकः पर्वोत्सवलक्षितं कृत्रिमाभावं तास्कर्यं मूल्यवृद्धिं गुणस्तरहीन वस्तूनां विक्रयणं च नियन्त्रयितुं निर्दिशति। पर्वोत्सवलक्षित सहजापूर्ति व्यवस्थापनस्य प्रभावकारिणः आपणानुगमनस्य च विषयेषु सम्बद्ध पक्षैः ह्यो वीते विमर्शने गृहमन्त्री लेखकः पर्वोत्सवानां समये दैनिकोपभोग्य सामग्रीणां सहजतया प्राप्तेः व्यवस्था करणीयाः इति अगदत। तदवसरे गृहमन्त्री लेखकः सम्बद्ध पक्षाणां समन्वये सति परिणामस्य प्रदानत्वेन कार्यं कर्तुं शक्यते इति अवोचत। नेकपा माओवादी केन्द्रस्य सुदूरपश्चिम प्रदेशस्तरीय द्विदिवसीय परामर्शोपवेशः ह्यः सम्पन्नो वर्तते। परह्यः बुधवासरात् प्रारब्धे उपवेशे केन्द्रीय सदस्याः पदाधिकारिणश्च संहत्य 63 जनाः दलस्य अतिरिक्त सुदृढीकरणाय परामृष्टवन्तः। उपवेशम् अध्यक्षेण गृह अध्यक्षेण पुष्पकमला दाहाल प्रचण्डेन सहिताः पदाधिकारिणः समबोधयन् अद्यतः कर्णाली प्रदेशस्तरीय परामर्शोपवेश प्रारभमाणो वर्तते। प्रदेशस्य परामर्शोपवेशस्य पश्चात् नेकपा माओवादी केन्द्रस्य केन्द्रीय समितेः उपवेशः वत्स्यतीति दलेन ज्ञापितं वर्तते। बाँके जनपदे बसयानस्य दुर्घटनायां जनत्रयं मृतं वर्तते। दाङ जनपदस्य तुलसीपुरात् नेपालगंज स्थानाय प्रस्थितं यात्रीवाहक बसयानं ह्य नेपालगंज कोल्हापुर मार्गखण्डस्य गनापुरस्थाने दुर्घटितं वर्तते इति समाचाराः।